भो शिक्षाचार्यछात्राः भवतां सूचनासम्प्रेषणप्रविधि अस्य पत्रस्य चतुर्थ अन्वित्या षष्ठबिन्दुः वर्तते एजुसेट्। अस्य अध्ययनं शिक्षायां जनसञ्चारसाधनदृष्ट्या अस्माभिः करणीयं। सर्वप्रथमम् अस्य परिचयः। एजुसेट् जीसेट् 3 इति अनेन नाम्ना अपि ज्ञायते। प्राथमिकस्तरात् उच्चस्तरपर्यन्तं शिक्षाप्रदानाय अयं कार्यं करोति। अनेन माध्यमेन कक्षासु उपग्रह आधारित सम्प्रेषणं प्रचलति। भारतस्य प्रथम उपग्रहो अयं शिक्षाक्षेत्रे कार्यं करोति। एकः कृत्रिम उपग्रहो अस्ति अयं। सर्वप्रथमं 2004 तमे वर्षे सितंबर मासस्य 20 दिनाङ्के अस्य प्रक्षेपणं श्रीहरिकोटा आन्ध्रप्रदेशतः सतीश धवन अंतरिक्षकेन्द्रेण कृतम्। अस्य प्रणाली इन्सिट् प्रणाली वर्तते। अस्य उद्देश्यानि: प्रविधिमाध्यमेन दूरस्थ शिक्षा प्रदानकरणं, द्वितीय दुर्गम क्षेत्रेषु अपि शिक्षायाः सौविध्यं, प्रादेशिकभाषासु शिक्षा प्रदानं, विशेषज्ञैः सह वार्तायाः अवसर प्रदानं। नेक्स्ट, संपूर्ण देशे समान शिक्षक प्रशिक्षण व्यवस्था प्रदानं करणं वा, छात्र शिक्षकयोः अन्तःक्रियायाः अवसरः अवसर प्रदानम्। इसरो सैटेलाइट बेंगलोर द्वारा स्थापितं वर्तते। एजुसेट इत्यस्य विकासः इसरो सैटेलाइट बेंगलोर द्वारा प्रचलति अभवत् वा। अस्य स्थिति वर्तते, कुत्र स्थितं वर्तते एजुसेट? पृथिव्या भूस्थैतिक क्षेत्रतः 36,000 किलोमीटर यावत् उच्चैः स्थितं वर्तते। भूमध्यरेखातः 19.2 डिग्री स्तरे स्थितं वर्तते। वर्तमानकाले एजुसेट्तः प्रायशः 6,000 कक्षा सम्बद्धाः सन्ति। प्रतिवर्षं प्रायशः 15-18 लक्ष छात्राः शिक्षकाश्च लाभान्विताः भवन्ति। प्रारम्भे अस्य कार्यकालः 7 वर्षीयः एव आसीत्। 2014 तमे वर्षे जनवरी मासस्य 5 दिनाङ्के जीसेट 14 अयम् उपग्रहः प्रक्षेपितः। अस्य अवधि 12 वर्षपर्यन्तम् अस्ति, अर्थात् 2026 पर्यन्तम् अयम् अवधि वर्तते। केरलराज्ये तिरुवनन्तपुरे 2005 तमे वर्षे जुलाई मासस्य 28 दिनाङ्के डॉक्टर ए पी जे अब्दुल कलाम महाभागेन शैक्षिक सैटेलाइट इत्यस्य केंद्रस्य स्थापना कृता। दूरस्थ सम्मेलनाय अर्थात टेलीकॉन्फ्रेंसिंग करणाय CSAC हैदराबाद द्वारा DVB-RCS प्रविधि माध्यमेन शैक्षिक सैटेलाइट व्यवस्था अभवत्। कर्नाटक राज्येन नेटवर्क द्वयं कार्यं करोति, CIET। अस्य 100 केंद्राणि सन्ति, येन माध्यमेन CBSE, IASE, CTE, UGC, नवोदय विद्यालयः, NCERT इत्यादयः सम्बद्धा संस्था सन्ति। स्टेट नेटवर्क अनेन 49 केंद्राणि सम्बद्धानि सन्ति। तत्र सन्ति डाइट, SIET इत्यादयः। अस्य नियंत्रणं कर्नाटके वर्तते। राजस्थान राज्ये RE, राजस्थान एजुकेशन इनिशिएटिव संस्था स्थापिता। शिक्षा संकुले जयपुर नगरे अप्रैल मासस्य द्वाविंशति दिनांके 2006 तमे वर्षे अस्य स्थापना अभवत्। राजस्थाने अस्याः भागद्वयं वर्तते, SIT सिस्टम इंटीग्रेशन टेस्टिंग, द्वितीय वर्तते ROT सिस्टम इंटीग्रेशन टेस्टिंग अथवा SIT। अनेन चतुःचत्वारिंशत् केन्द्राणि सम्बद्धानि सन्ति, तत्र डाइट बीकानेर शिक्षा विभाग अनन्तरं शिक्षा संकुल एताः संस्थाः सम्बद्धाः सन्ति। ROT अनेन त्रयोदश केन्द्राणि सम्बद्धानि सन्ति, ये प्रायः उपनिदेशकैः विभिन्न विभागानां